इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् इंडिया एआई इम्पैक्ट सम्मेलनं भविष्यत्काले वैश्विक स्तरे कृत्रिम बुद्धेः शक्तेः उपयोगस्य दिशि एकः महत्वपूर्ण स्तम्भरूपेण सिद्धः सञ्जातः। मन की बात इति कार्यक्रमे श्रीमोदी अवदत् यत् भारतीय कृषकाणां परिश्रमस्य फलमस्ति यत् अद्य भारतदेशः विश्वस्य सर्वाधिकः तण्डुलोत्पादकः देशः जातः। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन मेरठ नगरस्य मेट्रो सेवा तथा नमो भारतम् इति अभियानं हरितध्वजेन आरब्धम्। सममेव मेरठे 13,000 कोटि रूप्यकाणाम् अनेकासां विकास परियोजनानां शुभारम्भं विहितवान्। अपि च 20-प्रतिविंशतिः विश्व क्रिकेट चषक प्रतिस्पर्धायाम् अद्य भारतीय दलम् अहमदाबाद नगरस्य नरेन्द्र मोदी क्रीडांगणे दक्षिणाफ्रीका दलं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् इंडिया एआई इम्पैक्ट सम्मेलनं भविष्ये वैश्विक स्तरे कृत्रिम बुद्धेः शक्तेः उपयोगस्य दिशि एकः महत्वपूर्ण स्तम्भरूपेण सिद्धः सञ्जातः। आकाशवाण्यां प्रसारितायां मन की बात इति कार्यक्रमे प्रधानमन्त्री उक्तवान् यत् अस्य सम्मेलनस्य कृते नवदिल्लीस्थ भारत मण्डपम् इत्यत्र बहूनां देशानां नेतारः, उद्योगपतयः, नवप्रवर्तकाः तथा च स्टार्टअप क्षेत्रे सम्बद्धाः जनाः समागताः। सममेव प्रोक्तं यत् तेन विश्वनेतृभिः तथा च प्रौद्योगिकी क्षेत्रस्य मुख्य कार्यकारी अधिकारिभिः सह मेलितुम् अवसरः प्राप्तः।
समिट में दुनिया भर के लीडर्स को बहुत प्रभावित किया। पहला प्रोडक्ट अमूल के बूथ पर था। इसमें बताया गया कि कैसे एआई जानवरों का इलाज करने में हमारी मदद कर रही है और कैसे 24/7 एआई असिस्टेंट की मदद से किसान अपनी डेयरी और जानवर का हिसाब रखते हैं। दुनिया भर के लीडर्स ये देखकर हैरत में पड़ गए कि कैसे एआई की मदद से हम हमारे प्राचीन ग्रंथों को, हमारी पांडुलिपियों को संरक्षित कर रहे हैं।
श्री मोदी अवदत् यत् तेन इंडिया एआई प्रदर्शने विश्वनेतृणां समक्षे अनेकानि वस्तूनि प्रदर्शितानि। विशेषतया प्रदर्शने अमूल समवायस्य मण्डपेन तथा च सुश्रुत संहिता इत्यनया प्रदर्शिन्या विश्वनेतारः अत्यन्तं प्रभाविताः सञ्जाताः। तत्र प्रदर्शितं यत् कृत्रिम बुद्धिः कथं पशूनां चिकित्सायां साहाय्यं करोति तथा च कृषकाः 24-होरापर्यन्तं सर्वदा एआई साहाय्येन स्वस्य दुग्धोत्पादनक्षेत्रं पशून् च निरीक्षन्ते। श्रीमोदी इदमपि अवदत् यत् विश्वस्य विभिन्न देशीयाः नेतारः एतद्दृष्ट्वा आश्चर्यचकिताः अभवन् यत् भारतदेशः कृत्रिम बुद्धेः साहाय्येन प्राचीनग्रन्थानां, ज्ञानस्य, पाण्डुलिपीनां च संरक्षणं करोति। सविस्तरेण उक्तवान् यत् प्रदर्शने सुश्रुत संहिता प्रदर्शनार्थं विशेषतया चिता आसीत्। प्रधानमन्त्री उक्तवान् यत् अस्मिन् शिखर सम्मेलने विश्वस्य जनाः कृत्रिम बुद्धेः क्षेत्रे भारतस्य अद्भुतक्षमतां द्रष्टुम् अवसरं प्राप्तवन्तः। अस्मिन् अवसरे भारतदेशेन स्वनिर्मितायाः कृत्रिम बुद्धेः त्रीणि प्रारूपाणि अपि आरब्धानि। श्रीमोदी उक्तवान् यत् एतत् शिखर सम्मेलनम् अद्यावधि महान्तमम् एआई सम्मेलनम् अस्ति। सः अस्य सम्मेलनस्य सफलतायै सर्वान् नागरिकान् अभिनन्दितवान्।
इस समिट में दुनिया को एआई के क्षेत्र में भारत की अद्भुत क्षमताएं देखने को मिली है। इस दौरान भारत ने 3 मेड इन इंडिया एआई मॉडल भी लॉन्च किए। यह अपने आप में अब तक की सबसे बड़ी एआई समिट रही है।
20-प्रतिविंशति क्रिकेट विश्व चषक स्पर्धायाः विषये श्रीमोदी उक्तवान् यत् अस्यां प्रतियोगितायां भारतीय मूलस्य अनेके क्रीडकाः भागं गृह्णन्ति। तेनोक्तं यत् कनाडा देशस्य दले भारतीय मूलस्य क्रीडकानां संख्या सर्वाधिका अस्ति। श्रीमोदी अवदत् यत् भारतीय मूलस्य असंख्याः क्रीडकाः सन्ति ये स्वस्वदेशानां नाम गौरवं च वर्धयन्ति। ते उक्तवन्तः यत् भारतीयाः यत्र कुत्रापि गच्छन्ति तत्र स्वमातृभूम्या सह सम्बन्धं धारयन्तः तस्य देशस्य विकासे अपि योगदानं ददति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। मन की बात नामकस्य कार्यक्रमस्य अस्मिन् प्रकरणे नरेन्द्र मोदी केरल राज्यस्य एकस्याः लघुबालिकायाः आलन शेरिन अब्राहम इत्यस्याः विषये उक्तवान्। सा बालिका केवलं दशमासपर्यन्तं जीवित्वा स्वजीवनं त्यक्तवती। तस्याः पितुः अरुण अब्राहम तथा मातुः शेरिन इत्येतयोः आलिन इत्यस्याः अंगदानस्य निर्णयः अत्यन्तं प्रशंसनीयः इति प्रधानमन्त्रिणा उक्तम्। प्रधानमन्त्री अवदत् यत् राष्ट्रपतिभवने श्वः राजगोपालाचारी उत्सवः आचरिष्यते। अस्मिन् अवसरे राष्ट्रपतिभवनस्य केन्द्रीय प्रांगणे सी राजगोपालाचार्यस्य प्रतिमायाः अनावरणं भविष्यति। सी राजगोपालाचार्यः स्वतन्त्र भारतस्य प्रथमः गवर्नर जनरल आसीत्। सः अवदत् यत् श्वः राष्ट्रपतिभवने राजाजी उत्सवः आयोज्यते। अस्यां शुभसन्ध्यायां राष्ट्रपतिभवनस्य केन्द्रीय प्रांगणे ब्रिटिश वास्तुशिल्पिनः एडविन लुटियन्स इत्यस्य प्रतिमास्थाने स्वतन्त्र भारतस्य प्रथमः भारतीयः गवर्नर जनरलः सी राजगोपालाचारी इत्यस्य प्रतिमा स्थाप्यते इति सः अवदत्। श्रीमोदी तस्य प्रशंसां कुर्वन् अवदत् यत् सः तेषु महानुभावेषु आसीत् ये अधिकारं पदरूपेण न अपि तु सेवारूपेण अपश्यन्। सः एतदपि उक्तवान् यत् एतत् दुर्भाग्यपूर्णम् अस्ति यत् स्वतन्त्रतायाः अनन्तरम् अपि ब्रिटिश प्रशासकानां प्रतिमाः राष्ट्रपतिभवने स्थिताः आसन्, किन्तु भारतस्य महान्तः सुपुत्राः तत्र स्थानं न प्राप्नुवन्। डिजिटल निगडनम् इत्यस्य विषयम् उल्लिख्य प्रधानमन्त्रिणा उक्तं यत् मन की बात कार्यक्रमे एतेषां विषयाणां चर्चायाः अनन्तरं समाजे डिजिटल निगडनं तथा च डिजिटल प्रपञ्चस्य विषये पर्याप्ता जागरूकता प्रसृता अस्ति। प्रधानमन्त्री त्रिशूर जनपदस्य एकस्य ग्रामस्य अपि उल्लेखं कृतवान् यत्र एकस्मिन् एव क्षेत्रे तण्डुलानां 70+500 प्रकाराः उत्पाद्यन्ते। तेषु स्थानीय प्रकाराः, औषधीय प्रकाराः तथा अन्यराज्येभ्यः आगताः प्रकाराः अपि सन्ति। एतत् बीजपरम्परायाः संरक्षणस्य महत् अभियानम् इति सः उक्तवान्। श्रीमोदी अवदत् यत् भारतीय कृषकाणां परिश्रमस्य फलम् अंकेषु अपि दृश्यते। अद्य भारतदेशः विश्वस्य सर्वाधिकः तण्डुल उत्पादकः देशः जातः अस्ति। भारतदेशे 15 कोट्यधिक परिमितं तण्डुलोत्पादनं जातमस्ति इति निश्चयेन विशिष्टा उपलब्धिः अस्ति इति प्रधानमन्त्रिणा कथितम्। अस्मिन्नेव प्रकरणे प्रधानमन्त्रिणा तिरुनवायाः नाम्नि स्थले भरतपुझा नदीतटप्रदेशे आचर्यमाणस्य प्राचीनस्य ममङ्गम नामकस्य उत्सवस्य अपि वर्णनं कृतम्। अनेके हि जनै अयं महाभागमहोत्सवः तथा केरलकुम्भ इति कथ्यते। परीक्षायाः कृते सज्जां कुर्वाणाः छात्राः इत्यस्य विषये प्रधानमन्त्रिणा आशा अभिव्यक्ता यत् छात्राः पूर्णसमर्पणेन परीक्षाणां सज्जां कुर्वन्ति तथा च अवसादात् दूरं तिष्ठन्ति। सः छात्रान् स्मारितवान् यत् तेषां योग्यता केवलम् अङ्कैः न मीयते। अन्ते श्रीमोदी सर्वेभ्यः रमजान मासस्य शुभकामनाः अददत् तथा च आगामिन्याः होली उत्सवस्य हार्दिकाः शुभेच्छाः अपि प्रकटितवान्। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन मेरठ नगरस्य मेट्रो सेवा तथा नमो भारतम् इति अभियानं हरितध्वजेन आरब्धम्। श्रीमोदी मेरठ साउथ स्थानकपर्यन्तं मेट्रो यानस्य यात्राम् अपि अकरोत्। अस्मिन् अवसरे प्रधानमन्त्रिणा 280 किलोमीटर मितस्य दैर्घ्ययुक्तस्य दिल्ली मेरठ नमो भारत अन्तरसम्पथं राष्ट्राय समर्पितः। तेन नमो भारतम् इत्यन्तर्गतम् RRTS इत्यस्य अवशिष्टखण्डानाम् उद्घाटनम् अपि कृतम्। एतेषु खण्डेषु सरायकालेखा तथा च न्यू अशोकनगर इत्येतयो मध्ये 5 किलोमीटर परिमित दीर्घमार्गः तथा दक्षिणी मेरठ इत्यस्मात् मोदीपुरम् पर्यन्तम् 21 किलोमीटर मितस्य दीर्घः मेट्रो मार्गः अपि अन्तर्भवति। प्रधानमन्त्री मेरठ साउथ स्थानकात् मोदीपुरम् स्थानकपर्यन्तं मेरठ मेट्रो सेवाया अपि हरितध्वजेन प्रस्थानम् अकरोत्। 20-20 विश्व क्रिकेट चषक प्रतिस्पर्धायाम् अद्य भारतदलम् अहमदाबाद नगरस्य नरेन्द्र मोदी क्रीडांगणे दक्षिणाफ्रीका दलं सम्मुखीकरिष्यति। स्पर्धेयम् अद्य सायं 7 वादने समारप्स्यते। मुख्यवार्ताः पुनरेकवारम्। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् इण्डिया AI इम्पैक्ट सम्मेलनं भविष्यत्काले वैश्विकस्तरे कृत्रिम बुद्धेः शक्तेः उपयोगस्य दिशि एकः महत्वपूर्ण स्तम्भरूपेण सिद्धः सञ्जातः। मन की बात इति कार्यक्रमे श्रीमोदी अवदत् यत् भारतीय कृषकाणां परिश्रमस्य फलमस्ति यत् अद्य भारतदेशः विश्वस्य सर्वाधिकः तण्डुलोत्पादकः देशः जातः। 20-20 विश्व क्रिकेट चषक प्रतिस्पर्धायाम् अद्य भारतीय दलं दक्षिणाफ्रीका दलं सम्मुखीकरिष्यति इति वार्ताः।